ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषये यद्यपि सन्धिः हल् सन्धिः इति अस्ति, किन्तु अद्य एकां कथां पठामः, तदनन्तरं तत्र तस्य अनन्तरं तत्र सन्धिः इति विषयः भवति। तर्हि तत्र धर्मवती इति कथा गतवर्गे वयं किञ्चित् पठितवन्तः, एकवारं पठितवन्तः, किन्तु पुनः तत्र आरम्भतः तत्र विवरणं कुर्मश्चेत् तत्र प्रायशः तत्र पठनं सुलभं भवति इति कृत्वा। तर्हि तत्र उषा भगिनी भवती एव आरम्भं करोति वा?
आं महोदय। कथा पठनीयं वा अर्थमपि करणीयं वा महोदय? एकवारं पठनीयं वा?
सत्यं सत्यं। तर्हि तत्र प्रथमपरिच्छेदम् एकवारं पठित्वा
अस्तु
तदनन्तरं तत्र विवरणं करोतु। समीचीनं वा?
आम् महोदय।
अस्तु।
धर्मवती मञ्जुनाथः अक्षरम्। कस्मिंश्चित् लघुग्रामे कश्चन युवकः आसीत्। सः महादरिद्रः। कस्याश्चित् विधवायाः कृषिक्षेत्रे कृषिं करोति स्म सः। सा तु नितरां कृपणा आसीत्। अस्तु। कस्मिंश्चित् लघुग्रामे इत्युक्ते बृहत् ग्रामः नास्ति, ग्रामं नास्ति, लघु एव अस्ति। तत्र एकः युवकः आसीत्। सः तु महादरिद्रः। दरिद्रः इत्युक्ते तस्य समीपे धनम् अधिकं नास्ति।
तत्र दरिद्र महादरिद्र नाम सः धनिकः न,
धनिकः नास्ति,
धनरहितवान्। तत्र तस्य पार्श्वे धनमेव नास्ति, केवलं दरिद्रः इति नास्ति, महादरिद्रः इति अस्ति खलु।
कस्याश्चित् विधवायाः कृषिक्षेत्रे कृषिं करोति स्म सः। सः तु सः युव महादरिद्रः युवकः। कस्याश्चित् कस्याश्चित् इत्युक्ते वयं न जानीमः कुत्र विधवायाः
अपि विभक्तिका तत्र कस्याश्चित्
षष्ठी विभक्ति
तत्र पदच्छेदं करोतु।
कस्याचित्
तर्हि तत्र कस्य तत्र कस्याश्चित् इति पदं केन अन्यपदेन अन्वयः भवति तस्य वाक्ये? कस्य पदस्य तत्र सम्बन्धः अस्ति अस्य पदस्य अपि अन्य कस्य पदस्य?
विधवायाः।
समीचीनं। हा, तर्हि विधवायाः इति अस्ति, अपि कस्याश्चित् इति अस्ति, तयोः मध्ये कः सम्बन्धः?
विशेषणविशेषं
विशेषणविशेषभावः। समीचीनं। तर्हि तत्र यथा तत्र कश्चन युवकः, तत्र अपि कः सम्बन्धः?
कश्चन युवकः, कश्चन अपि च युवकः सम्बन्धः अस्ति।
समीचीनं। तर्हि कश्चन इति पदस्य तत्र विभक्ति हा कश्चन कश्चन अस्तु, अपि तत्र लघुग्रामे अपि कस्मिंश्चित् तत्र कस्मिंश्चित् तस्य विभजनं करोतु।
कस्मिन् योगः चित्,
हा कस्मिंश्चित् अस्तु, इदानीं कस्याश्चित् इति तस्य विभजनं करोतु।
कस्याः योगः चित्,
हा इदानीं षष्ठी इति समीचीनं, कस्याः योगचित् कस्याश्चित् समीचीनम् अस्तु।
विधवायाः इत्युक्ते विगतः पतिः यस्याः,
निवेदिता भगिनी विवृतवती समीचीनं।
कृषिक्षेत्रे म्यूट् तस्य तस्याः कृषिक्षेत्रे सः युवकः कृषिं करोति. सा तु नितरां कृपणा आसीत्. सा तु इत्युक्ते सः सा विधवा नितरां कृपणा आसीत्. कृपणा इत्युक्ते धनं कमपि न यच्छ किञ्चि इति मन्ये महोदय. कृपणा
नाम तत्र कृपणा नाम तत्र सः सा तत्र धनस्य धनं यद्यपि यदि भवति तस्याः पार्श्वे किन्तु तत्र न दातुम् इच्छति
महोदय. तस्य पार्श्वे इति वक्तव्यं वा तस्य तस्याः
द्वयमपि समानमेव
अस्तु.
तत्र अन्यः तत्र वण्डरः इति अस्ति. वण्डरा इति नाम
कृपणा.
वण्डरा इत्युक्ते कृपणा कृपणा
वण्डरा.
अथवा धनार्थिनी इति अपि नाम धनम् इच्छति सा इति.
धनार्थिनी
अदान्या.
युवकेन महता श्रमेण कर्षणं कृतं चेदपि एकस्मिन् पर्वसमये शालिसस्य मञ्जरीषु धान्यानि न एव उत्पन्नानि. इत्युक्ते युवकः महता श्रमेण कर्षणं करोति परन्तु पर्वसमये शालिसस्य मञ्जरीषु धान्यानि न एव उत्पन्नानि. किमपि न उत्पन्नानि तस्मिन् कृषिक्षेत्रे.
एकस्मिन् पर्वसमये तत्र किम् अभवत्? तत्र शालिसस्य मञ्जरीषु
न एव उत्पन्नानि न एव किमपि धान्यानि न उत्पन्नानि तस्मिन् कृषिक्षेत्रे.
तत्र शालि नाम
किं महोदय?
शालि नाम
पेडि इति अस्ति न
महोदय? तथैव अस्ति.
धान्य
तत्र शालि इति धान्यं भवति. शालि तस्य सस्य मञ्जरीषु तत्र धान्यानि एव न उत्पन्नानि.
न योगः नैव
मञ्जरी इत्युक्ते मञ्जरीषु इत्युक्ते तत्र लघु सस्यं तत्र शूट् इति वदन्ति अथवा स्प्रौट् इति मञ्जरी मञ्जरीषु तत्र धान्यानि एव न
उत्पन्नानि. तद् दृष्ट्वा कुपिता सा विधवा तव पादगुणः असमीचीनः स्यात्. तत् दृष्ट्वा कुपिता सा विधवा किं वदति इत्युक्ते तव
विधवा सा विधवा का अभवत्? सा विधवा
कुपिता अभवत्.
कुपिता अभवत् सा विधवा कुपिता अभवत्
किमर्थम् इत्युक्ते शालिसस्य मञ्जरीषु धान्यानि न उत्पन्नानि.
अतः तत्र किमपि नास्ति इति कृत्वा सा कुपिता
भूत्वा किं वदति इत्युक्ते तव पादगुणः इत्युक्ते युवकस्य पादगुणः असमीचीनः इति उक्तवती.
समीचीनं. यतोहि तत्र पादेन एव तत्र कृषकार्यं सर्वं भवति खलु. पाद अपि हस्तेन अथवा तत्र पादगुणः हस्तेन तत्र पादगुणः हस्तगुणः असमीचीनः स्यात् इति
इतः गच्छ त्वम् इति तर्जयित्वा तस्मै वेतनमपि अदत्वा तं गृहात् प्रेषितवती. अधुना सा उक्तवती त्वम् इति इतः गच्छ त्वं किमपि वेतनं न
तर्जयित्वा इत्युक्ते
तर्जयित्वा स्कोल्डिङ्ग् इति
सत्यं भगिनि तत्र निन्दनम् इव
निन्दनं कृत्वा त्वं अस्य ग्रामात् बहिः गच्छ इति
प्रेषय किं ग्रामात् इति अस्ति चेत् तत्र अस्मात् ग्रामात्
त्वं
बहिः
गच्छतु
इति तत्र त्वम् इति अस्ति अतः गच्छ इति
त्वं गच्छ
अस्मात् ग्रामात् त्वं बहिः
गच्छ इति उक्तवती. एतत् दृष्ट्वा जनाः
सा किं कृतवती तत्र
वेतनमपि न दत्तवती किमपि वेतनमपि
न दत्तवती.
एतत् दृष्ट्वा जनाः परस्परम् अवदन् तया देवाः न प्रार्थिताः. अत्र कर्मणि प्रयोगे अस्ति तया देवाः न प्रार्थिताः. एतत् दृष्ट्वा
कर्तृरूपं वदतु तया देवाः न प्रार्थिताः
देवं न प्रार्थितवती
समीचीनं किन्तु तत्र देवम् इति वचनं समीकरोतु
देवान्
हा तावदेव उत्तमं
सा देवा न प्रार्थितवती इत्युक्ते एतत् दृष्ट्वा सम्भवं
हा उत्तमं तत्र
एतत् सम्भवं दृष्ट्वा जनाः परस्परं वार्तालापं कृतवन्तः. किम् इत्युक्ते एतां घटनां दृष्ट्वा जनाः परस्परं वार्तालापं कृतवन्तः. किमर्थम् इत्युक्ते सा विधवा तु देवानपि न प्रार्थितवती अपि च देवाय नैवेद्यम् अपि न दत्तवती. अतः एव तस्याः सस्यमञ्जरीषु धान्यं न सञ्जातम् इति एव कारणमस्ति.
न तु युवकस्य दोषः
नास्ति
युवकस्य कोऽपि दोषः नास्ति. एतत् सर्वं तत्र कृपणा विधवा या अस्ति तस्याः दोषः अस्ति किन्तु तत्र युवकस्य दोषः नास्ति इति. समीचीनं भगिनि धन्यवादः उत्तममस्ति. अस्तु धन्यवादः भगिनि. अस्तु अग्रे तत्र वेदा भगिनी अग्रे पठितुम् इच्छति वा?
आं महोदय. युवकेन विना भोजनं सः ग्रामः
तत्र
युवकेन विना भोजनं सः ग्रामः त्यक्तः. युवकेन विना भोजनं सः ग्रामः त्यक्तः. अन्यः ग्रामः गतः च. युवकः भोजनं न कृतवान् अपि च तद् ग्रामं त्यक्तवान्. अन्यः
ग्रामः अस्ति खलु तर्हि तत्र सम्यक् रूपं किं भवति?
युवकेन विना भोजनं सः ग्रामः
सम्यक्तया उक्तवती तत्र किन्तु तत् ग्रामम् इति उक्तवती.
ओ तत् ग्राम ओ ओके
किं भवेत् तत् इति स्थाने
एतत् ग्रामः वा?
न तत्र एकवारं तत्र पठतु तत्र भोजनम् अनन्तरं किमस्ति
भोजनं सः
सः
युवकेन विना भोजनं सः ग्रामः तक्तः. सः इत्युक्ते युवकः वा? न
इति मम प्रश्नः. उत्तमप्रश्नः. अस्तु तर्हि तत्र वदतु तर्हि तत्र त्यक्तः इति अस्ति कः त्यक्तः?
त्यक्तः प्रत्यय युवकेन तृतीया विभक्ति अस्ति तत्र. त तु कर्मणि प्रयोगे तस्य
उत्तमं हा समीचीनं भगिनि हा तर्हि तत्र युवकेन त्यक्तः युवकेन तर्हि युवकेन त्यक्तः अस्ति चेत् तस्य कर्तरिरूपं वदतु
कर्तरिरूपं युवकः विना भोजनं
न केवलं भगिनि भगिनि स्वपन्न गच्छामः युवकेन त्यक्तः लघुवाक्यं स्वीकरोतु तस्य कर्तरिरूपं वदतु
अच्छा युवकः ग्रामं त्यक्तः
केवलं युवकेन त्यक्तः
युवकेन त्यक्तः अस्तु युवकः त्यक्तवान्
उत्तमं हा युवकः त्यक्तवान् समीचीनम् इदानीं तत्र किं त्यक्तवान् अथवा कं त्यक्तवान् तत्र किं कर्मपदं
ग्रामं त्यक्तवान्
हा उत्तमम् अस्तु इदानीं तत्र युवकेन ग्रामः त्यक्तः इत्युक्ते युवकः ग्रामं त्यक्तवान् त्यक्तवान् समीचीनं
तत् ग्रामं त्यक्तवान्
न अत्रैव अस्तु प्रश्नः हा इदानीं तत्र ग्रामः त्यक्तः इति अस्ति खलु किमर्थं त्यक्तः इति पुल्लिङ्गे अस्ति
ग्रामः
ग्रामः ग्रामः इति पुल्लिङ्गपदम् इति अपि ग्रामः त्यक्तः तयोः मध्ये कः सम्बन्धः
ग्रामः विशेषविशेषणमस्ति
उत्तमं हा समीचीनं हा तर्हि ग्रामः त्यक्तः विशेषणविशेष्यभावः अस्तु इदानीं युवकः ग्रामं त्यक्तवान् इदानीं ग्रामम् इति तस्य तत्र तद् इति वक्तुं शक्नुमः वा तद् ग्रामम् इति
न न न तद् ग्रामं न
किं सम्यक् रूपं भवेत्
तर्हि मम प्रश्नः अस्ति सः इत्युक्ते युवकः ग्रामात् न न न न
खलु यतोहि युवकेन इति तृतीया अस्ति खलु
तर्हि
सः इत्युक्ते कः
ग्रामस्य विशेषणं सः
रामः सत्यं भगिनि हा तथैव अस्ति सः ग्रामः यः ग्रामः यस्मिन् ग्रामे सः आसीत् सः ग्रामः त्यक्तः
त्यक्तः
तर्हि इदानीं सः इति पदस्य तत्र विभक्तिरूपाणि वदतु सः तौ ते
सः तौ ते तं ते तान्
तर्हि द्वितीया विभक्ति एकवचनरूपं किमस्ति
तम्
तर्हि युवकः ग्रामं त्यक्तवान्
तं ग्रामं
तं ग्रामं त्यक्तवान् उत्तमं भगिनि युवकः विना भोजनं तं ग्रामं त्यक्तवान् अग्रे
अन्यः ग्रामः गतः च अन्यः ग्रामः गतवान् इति
न अन्यः ग्रामः प्रथमविभक्त्याम् अस्ति कर्तृप्रयोगे युवकः
अन्यम् इति वा अन्यं ग्रामः
समीचीनम् अन्यं युवकः अन्यं ग्रामं गतवान्
च
गतवान् च इदानीं पूर्णवाक्यस्य कर्तृरूपं वदतु
कर्तृरूपं युवकः विना भोजनं तं ग्रामं त्यक्तवान् अन्यं ग्रामं गतवान् च
इति अस्ति समीचीनं हा अग्रे
तत्र कस्यचित् क्षेत्रस्य मध्ये एकः कुटीरः दृष्टः तत्र कस्यचित् तत्र क्षेत्रस्य तत्र विशेषणमस्ति कस्यचित् कस्य योगः चित् कस्यचित् क्षेत्रस्य मध्ये कस्यचित् क्षेत्र इत्युक्ते कोऽपि क्षेत्र इति वदामि वा
तत्र क्षेत्रम् इति नपुंसकलिङ्गे अतः किमपि क्षेत्रं
कस्यचित् क्षेत्रस्य मध्ये एकः कुटीरः दृष्टः इत्युक्ते युवकः
दृष्टः तत्र
युवकः एकस्मिन् कस्यचित् क्षेत्रस्य मध्ये एकं कुटीरं दृष्टवान् इति वा
हा इति अस्ति सः युवकः दृष्टवान् उत्तमं भगिनि हा समीचीनं
तत् समीपं गत्वा सः द्वारं स्थापितवान् तत् समीपं गत्वा इत्युक्ते कुटीरस्य समीपं गत्वा युवकः द्वारं ताडितवान् ताडितवान् इत्युक्ते नाक् अन्य इदानीं किमस्ति ताडितवान् इत्युक्ते तस्य अन्यत्
तत्र एव इति मन्ये तत्र
अस्तु ताडितवान् एव
सः द्वारं ताडितवान् इति अस्ति चेत् सः द्वारः तु पिधानम् अस्ति अतः सः ताडितवान् इति अपि वक्तुं शक्नुमः न महोदय
किं भगिनि
सः द्वारं ताडितवान् इति अस्ति खलु तत् द्वारं तु पिधानम् अस्ति अतः सः ताडितवान्
द्वारं किम् आसीत्
पिधानं क्लोज्
पिधानम् द्वारं
ताडितं
उद्घाटितं नास्ति
अतः तत्र द्वारं ताडितं तत्र तत्र किं तत्र प्रहारमिति अपि दत्तमस्ति भगिनि तत्र स्पोकन् संस्कृत् मध्ये न जानामि
परन्तु प्रहारम् इत्युक्ते सम्यक् अस्ति वा महोदय
तत्र अर्थद्वयं भवेत् प्रहारम् एकं प्रहारं यावत् इति समयमपि सूचयति किन्तु अत्र हरति प्रहारं कृतवान् इति प्रायशः तत्र ताडनमेव समीचीनं ताडितवान् इति स्वीकुर्मः
द्वारं ताडितवान् तत्र अन्तभागतः आगता काचित् वृद्धा द्वारम् उद्घाट्य तदा तत्समये अन्तभागतः इत्युक्ते गृहस्य अन्तभागतः एकं वृद्धा काचित् वृद्धा एका वृद्धा आगतवती अपि च द्वारम् उद्घाटितवती अस्ति वा
सत्यं सत्यं समीचीनम् उद्घाटितवती
अपि च पृष्टवती किं भोः किमर्थं द्वारताडनं कृतं भवता इति अपृच्छत् सा युवकः प्रति पृच्छति किं
युवकः प्रति इति न युवकं प्रति
युवकं सारि युवकं प्रति पृच्छति किं भोः द्वारताडनं कथं करोति
किमर्थं
द्वारताडनं
कथं गायति इति खलु हौ इति
किमर्थं द्वारताडनम् अकरोत् इति सः
किमर्थं द्वारताडनं
किमर्थं द्वारताडनं कृतवान् भवान् इति पृष्टवती
इति पृष्टवती समीचीनं
तदा युवकः दैन्येन अवदत् दैन्येन इत्युक्ते दीनता इति
समीचीनं
तदा
युवकस्य दीनः अस्ति दीनः इति कृत्वा तस्य भावः दैन्यं
दैन्य
पुनः
भावेन अवदत् इति
किं भगिनि
तदा युवकः दीनभावेन अवदत् इति समीचीनं वा
दीनभावेन इति प्रायशः भगिनि तत्र
दैन्येन तत् सिनानिम् इति अन्यत्
महोदय
दीनतया इति प्रायश दीनता इति दीनतया अपि समीचीनं
दीनतया अवदत् ह्यः आरभ्य नैव खादितं मया किमपि अहं ह्यः आरभ्य अहम् अन्नं न खादितवान् किमपि न खादितवान् अल्पम् अन्नं दत्तं चेत् अहम् उपकृतः स्याम् इति यदि भवती अल्पम् अन्नं दत्तं चेत् दत्तवती यदि भवता अल्पम् अन्नं दत्तवती
भवता इति अस्ति चेत्
भवता न वा किम् अस्ति भवती
तत्र चेत् दत्तम् इति एव तत्र कर्मणि एव अस्ति खलु
आम् 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 कर्मणि एव
तर्हि भवता अल्पम् अन्नं दत्तं चेत् अल्पम् अन्नं दत्तं चेत् भवता इति न भवत्या खलु
भवत्याः कर्तरिप्रयोगे यदि वदामि चेत् यदि त्वम् अल्पमन्नं
दत्तवती चेत् भवति इति अस्ति खलु, तर्हि त्वमिति परिवर्तनं न भवति,
भवति भवति अल्पमन्नं दत्तवती चेत्
ददाति चेत्
ददाति चेत् अहम् उपकृतः स्याम्, उपकृतः इत्युक्ते ओब्लैज्ड् लैक्
उपकृतं समीचीनं भगिनि. तत्र ददाति चेत् इति स्थाने यदि भवती दद्यात् तर्हि अहम् उपकृतः भवेयम्.
अस्तु
अथवा स्याम्
भवती अल्पम् अन्नं
किञ्चित् अन्नमपि यदि भवती ददाति चेत्
अहं धन्यः स्याम् इति वा.
समीचीनं भगिनि, अस्तु
धन्यः
अस्तु समीचीनं. तत्र अग्रे अपि पठितुं
किन्तु सा वृद्धा, अहं पठामि महोदय वन् मोर् पाराग्राफ् परिच्छेदं. किन्तु सा वृद्धा द्रष्टुं पुष्टकायोसि इत्युक्ते वृद्धा वदति, सा वृद्धा वदति द्रष्टुं पुष्टकायोसि, त्वं पुष्टकायः अस्ति इति अहं द्रष्टामि पश्यामि, अहं पश्यामि त्वं तु पुष्टकायः अस्ति. पुष्टकाय अस्मि स्ट्रेङ्थ् लैक् स्ट्राङ्ग् बाडि. त्वं तु पुष्टकायः अस्ति तत्तु अहं पश्यामि. त्वया किमर्थं पुष्टः, यस्य कायः स्वस्थः इति, स्वस्थकायः इति वदामि वा.
तत्र पुष्टिपूर्णः अस्ति नाम तत्र सम्यक् तत्र वर्धनम् अभवत्, तत्र सम्यक् रीत्या खादितवान् अस्ति, तत्र तादृशं वेल् नरिष्ड्
वेल् नरिष्ड्
सुदृढः इति समीचीनमस्ति वा. सुदृढः
सदृढः
दृढः इति प्रायः नास्ति भगिनि, यतोहि तत्र दृढः इत्युक्ते तत्र स्थूलः इति तादृशं भवति खलु. तत्र दृढः दृढं शरीरं भवतः
स्थूलशरीरमस्ति,
तादृशमस्ति तादृशं वक्तुं शक्नुमः.
करेक्ट् स्थूलशरीरं,
स्थूलशरीरं न किन्तु दृढं शरीरं नाम
दृढं शरीरं वा
शक्तिवान् तत्र
बलवान् अस्ति वा महोदय
बलवान् तत्र शक्तिमान् अस्ति इति.
ओके त्वया किमर्थं कार्यं न क्रियेत, त्वं कार्यं किमर्थं न करोति अकरोत्, त्वं कार्यं किमर्थं कार्यं न
करोति, किमर्थं कार्यं न करोति
याचनं वरं न. याचनम् इत्युक्ते भिक्षा, नाट् भिक्षा,
भिक्षाटनं
भिक्षाटनं वरं न इत्युक्ते न भिक्षाटनं न
वरम् इत्युक्ते किम् अस्ति अत्र.
वरं मीन्स् याचनं वरं न, डोण्ट् आस्क्
योग्यं
वरं सम्यक् नास्ति. याचनं इत्युक्ते याचनं सम्यक् नास्ति नाम याचनस्य अपेक्षया कार्यं तत्र कार्यकरणं
कार्यं करोतु याचनं न.
हा नाम वरम् इति न वरं, वरम् इत्युक्ते उत्तमं न उत्तमम् इति वरं किन्तु उत्तमम् अथवा सम्यक् नास्ति इति. निवेदितभगिनी भवती किम् उक्तवती तत्र वरम् इति
योग्यं समीचीनं.
समीचीनं
इति उक्त्वापि जातकरुणा सा तस्मै अन्नादिकम् अयच्छत् इति उक्त्वा याचं वरं न इति उक्तवती. परन्तु करुणायाः सा सा जातकरुणा सा इत्युक्ते करुणा जाता.
प्रथमतया तत्र सा किं कृतवती इति वदतु, तदनन्तरं पदस्य
उक्त्वा अपि सा तस्मै अन्नादिकम् अयच्छत् तस्मै अन्नम् दत्तवती.
अन्नादिकं नाम भोजनं
दत्तवती.
केवलम् अन्नम् इति नास्ति खलु, अन्नादिकं नाम
भोजनम्
अन्नादिकं, तत्र भोजनं दत्तवती. कस्मै? तत्र युवकाय.
युवकाय
युवकाय
सा जातकरुणा अस्ति इति वा? जातकरुणा
सत्यं. हा, जातकरुणा इत्युक्ते
सा करुणामयी अस्ति.
हा, तादृशं नाम तस्यां करुणा जाता, सा जातकरुणा.
जातकरुणा.
पुनः वदतु, तत्र विग्रहवाक्यं किमस्ति? यस्यां
चित्रमहोदयस्यां
करुणा जाता.
हा, यस्यां करुणा जाता सा वृद्धा. ओ, यस्यां करुणा जाता जातकरुणा. आम् आम्.
किन्तु सम्यक् तत्र पूर्णवाक्यं पुनः वदतु.
सा वृद्धा.
न, तत्र विग्रहवाक्यं जातकरुणा इति पदस्य विग्रहवाक्यम्.
ओ ओ, यस्य करुणा जाता.
यस्य न, यस्याम्.
यस्याम्. ओ, यस्याम. आमाम्. यस्यां जातक करुणा जाता सा जातकरुणा इति.
हा, इति अस्ति भगिनि. यस्यां, तत्र सप्तमी. यस्यां करुणा जाता.
करेक्ट्. इन् हूस् करुणा
अथवा यस्याः करुणा जाता सा जातकरुणा, तदपि
यस्यां जातकरुणा एव करुणा जाता सा इति
जातकरुणा. तत्र प्रायशः षष्ठी अपि भवितुम् अर्हति इति मन्ये. अतः यस्याः अथवा यस्यां करुणा जाता.
करुणा जाता सा जातकरुणा.
जातकरुणा
सा वृद्धा तस्मै अन्नादिकम् अयच्छत्. अयच्छत् तस्य तव तु प्रयोगे किं वदामि तत्र? अयच्छत् अयच्छत्.
यदि न जानाति त्यजतु. यत् जानाति तेन तस्य उपयोगेन विवरणं करोतु.
अयच्छत्. ओके. तेन भोजनेन निवारित बुभुक्षः सः कृतज्ञतां प्रकटय्य तेन भोजनेन निवारित बुभुक्षः बुभुक्षः निवारितः तेन भोजनेन बुभुक्षः निवारितः सः युवकः कृतज्ञतां प्रकटितवान्. कृतज्ञतां प्रकटितवान् तत्र कक्षरी प्रयोगे वदामि इति वा?
तेन तत्र न तत्र प्रायशः एतद् वयं पूर्वं न कृतवन्तः, किन्तु यथा तत्र जातकरुणा अस्ति भगिनि तथैव एतत् पदमपि तत्र निवारितबुभुक्षः इति. तत्र बुभुक्ष निवारितबुभुक्षः इति पदस्य लिङ्गं किं?
बुभुक्षः पुल्लिङ्गम्.
हा, अपि तत्र सः इत्युक्ते कः?
युवकः.
निवारितबुभुक्षः खलु, युवकः.
युवकः
खलु.
यस्य बुभुक्षः निवारितः सः.
हा, तादृशं समीचीनं भगिनि. हा, तथैव अस्ति. किन्तु बुभुक्ष इति स्त्रीलिङ्गपदं. न, किन्तु बुभुक्ष इति स्त्रीलिङ्गपदम्.
बुभुक्ष स्त्रीलिङ्गं वा?
बुभुक्ष.
ओ,
किन्तु बहुव्रीहि समासे तत्र लिङ्गपरिवर्तनं भवति. अतः यस्य बुभुक्षा निवारिता सः निवारितबुभुक्षः इति.
अस्तु,
पुनः वदतु विग्रहवाक्यं.
हलो,
किं भगिनि?
बुभुक्षा भोक्तुम् इच्छा.
सत्यं भगिनि. हा, बुभुक्षा नाम भोक्तुम् इच्छा. सत्यं सत्यं. हा, तनन्तप्रत्ययः. तत्र वेद भगिनि वदतु तत्र यस्य
यस्य नि यस्य यस्यां बुभुक्षा
इदानीं षष्ठी.
यस्य बुभुक्षा निवारिता यस्य बुभुक्षा निवारिता सः निवारितबुभुक्षः
तावदेव उत्तमम्. यस्य बुभुक्षा निवारिता सः निवारितबुभुक्षः. इदानीं तत्र पाटर्न् कथम् अस्ति, आकृतिः कथम् अस्ति इति अवगमनं भवति खलु. तर्हि निवारितबुभुक्षः किं करोति नाम तस्य भोजनस्य खादनेन तस्य बुभुक्षा
निवारिता.
तदनन्तरं सः किं कृतवान्?
तदनन्तरं सः कृतज्ञता प्रकटितवान्
तत्र प्रकटय्य इति अस्ति. किमर्थं तत्र
प्रकटय्य लेप् प्रत्यय वा? तत्
लेप् प्रत्यय अस्ति, किन्तु किमर्थं तत्र यकारद्वयम्?
ओ प्रकटय्य प्रकटय्य लेप् लेप् इत्युक्ते यकारय.
अपि क्रियापदं, साक्षात् क्रियापदं किमस्ति?
प्रकट
न तत्र क्रियापदरूपेण वदतु, नाम पठति तादृशं वदतु.
ओ प्रकटवत् प्रकटितवान्.
न लट्लकारे.
ओ लट्लकारे वा? ओके प्रकटति सः प्रकटयति
तत्र समान तत्र साधारणपदं खलु प्रकटयति तत्र णिच् अस्ति खलु.
अच्छा ओके
प्रकटयति णिच् अथवा प्रायश तत्र णिच् वा अथवा णिच् प्रायश णिच् नास्ति, किन्तु तत्र कस्मिन् गणे अस्ति इति द्रष्टव्यं प्रायश. किन्तु तत्र धन्यवादः. अतः तत्र तत्र धातुमध्ये एव अस्ति. अतः तदनन्तरं तत्र यकारः ल्यबन्तय्य यकारः, अतः प्रकटय्य इति भवति.
प्रकटय्य
अस्तु अग्रे.
अम्ब त्वया उक्तं यत् किमपि कार्यं कर्तुम् अहं सज्जः. त्वया उक्तं किमपि कार्यं कर्तुम् अहं
तत्र भगिनि तत्र वाक्यस्य कथं नाम तत्र त्वया उक्तं यत् यत्किमपि कार्यं
तत्र विशेषणविशेषम् अस्ति.
तत्र अतः सुलभतया
त्वया उक्तं कार्यं
त्वया यत् उक्तं कार्यं तत्र त्वया उक्तं यत्किमपि कार्यं
त्वया उक्तं यत्किमपि कार्यं कर्तुम् अहं सज्जः. इत्युक्ते अहं किमपि कार्यं भवति भवति न किमपि कार्यं भवति वा किं वदामि न भवति किमपि कार्यं यत्किमपि कार्यम् उक्तवती
कर्तुं कर्तुं वदति एतत् करोतु इति वदति
तत् कार्यम् अहं
कर्तुं
करोमि सद्यः इत्युक्ते अहं कर्तुं शक्यते शक्नुमः
सज्जः सज्जः नाम अहं कर्तुम् इच्छामि केवलं शक्नोमि इति न तत्र सज्जः अहं कर्तुं तत्र ऐ एम् रेडि तत्र ऐ केन् डु इति नास्ति खलु अहं सज्जः
ऐ एम् रेडि ओके
भवती वदति तत् अहं करोमि
कार्यं यत् भवती वदति तत् कार्यम् अहं कर्तुम्
अहं सज्जः अस्मि
अच्छा त्वं मां पुत्रं मन्तुम् अर्हसि इति अकथयत्. त्वम् इत्युक्ते भवती भवती मया पुत्रम् इति
मया कथं मया भगिनि मया इति तृतीया
नै षष्ठी ऐ वाट् टु से सर् मम वा
अस्तु वदतु भगिनि वदतु.
त्वं मां तं मां पुत्रं मन्यत् मन्तुम् अर्हसि इत्युक्ते त्वं यु ट्रीट् मी एस् युवर् सन् लैक् दट्
सत्यं किन्तु आङ्ग्लभाषां वयं न जानीमः
प्रयत्नं करोमि महोदय. त्वं मां पुत्रं मन्तुम् अर्हसि इत्युक्ते
अन्यरीत्या वदतु, त्वाम् अथवा अहम्
अहं तस्य न
खलु
अहं त्वया पुत्रम् इति न
तव
तव पुत्रं करेक्ट् करेक्ट् या अहं तव पुत्र इति मन्यते वा अहं तव पुत्र इति मन्यते न मन्तुं अर्हसि तस्य किं वदामि तत्र अहं
मन्तुमित्युक्ते कः अर्थः कः
मन्तुमित्युक्ते
अस्ति चेत्
मन्ये
इत्युक्ते अर्थः कः
मन्ये इत्युक्ते यु अक्सेप्ट् मी लैक्
तर्हि तस्य पदस्य संस्कृतपदं वदतु तर्हि
मन्ये
न भवती किमपि अन्यत् पदम् आङ्ग्लभाषायाम् उक्तवती खलु तस्य पदस्य संस्कृतपदं वदतु तर्हि
स्वीकरोतु
अङ्गीकरोतु भवती तत्र निवेदतु भगिनि तत्र स्वीकरोतु इति यद्यपि तत्र हिन्दीभाषायां तत्र तादृशं प्रायशः अस्ति खलु अक्सेप्ट् स्वीकारः इति किन्तु संस्कृतभाषायां तत्र अङ्गीकारं भिन्नमस्ति स्वीकारं नाम टेक् स्वीकार इत्युक्ते लेलो
तव पुत्रः इति अङ्गीकरोतु इति वा
तव पुत्रः अहं तव पुत्रः इति चिन्तयतु इति भावयतु
अहं तव पुत्रः इति चिन्तयतु और् भावयतु ओके
खलु
आम्
आम् तत्र सरलपदं पदस्य योजनेन अवगमनं सुलभतया भवति तावदेव हा इति अकथयत् इति कथितवान् अस्तु समीचीनं भगिनि हा वारं तत्र प्रश्नं पृच्छामि केवलं तत्र स्वशब्दैः यदि भवति तत्र सम्यक् अवगमनं भवति इति तावदेव अस्तु अग्रे नरेश महोदय
आम् महोदय वृद्ध स्वस्य अल्पस्य क्षेत्रस्य कर्षणोत्तरदायित्वं तस्मै अयच्छत् वृद्धा तत् युवकाय दायित्वं दत्तवती
दायित्वं
किम् अस्ति दायित्वम् अस्ति कर्षणोत्तरदायित्वं
महोदय उत्तरदायित्वं केवलं दायित्वं नास्ति
उत्तरदायित्वं
नाम रेस्पान्सिबिलिटि
कर्षण उत्तरदायित्वं
कर्षणस्य उत्तरदायित्वं कुत्र कर्षणस्य उत्तरदायित्वं
क्षेत्रस्य अल्पस्य क्षेत्रस्य उत्तरदायित्वं कर्षण उत्तरदायित्वं
समीचीनम् अपि कस्य क्षेत्रः अस्ति
वृद्धायाः क्षेत्र
हा तत्र स्वस्य इति किं भवति तत्र स्वस्य क्षेत्रस्य इति तत्र क्षेत्रम् इति यत् लिङ्गं तदेव तत्र स्वस्य इति भवति तत्र
क्षेत्रस्य स्वस्य
यद्यपि तत्र वृद्धा इति अस्ति किन्तु वृद्धा स्वस्य क्षेत्रस्य इति भवति स्वस्याः इति न भवति तत्र क्षेत्रस्य लिङ्गमेव स्वीकरोति कर्मपदस्य लिङ्गं स्वीकरोति
मम गृहे वसन् त्वं श्रद्धया कृषिं कुरु सावदत् मम गृहे वसन् तत्तु किं पदमस्ति मम गृहे
वसन् इति
शत्रन्तपदम् अस्ति अत्र वस अपि च कृषिं कुरु मम गृहे
सत्यं सत्यं तत्र क्रियाद्वयमस्ति वसतु अपि कृषिकार्यं करोतु गृहे
श्रद्धया
श्रद्धया कृषिकार्यं कृषिं करोतु समीचीनं
निर्धना तुभ्यं वेतनं दातुं न प्रभवामि सः सा अवदत् सा निर्धना अस्ति अतः सा युवकाय वेतनं तु दातुं न शक्नोति न प्रभवामि
प्रभवति इत्युक्ते न शक्नोति
न शक्नोति
न शक्नोति प्रभवामि न प्रभवामि दातुं न प्रभवामि दातुं न शक्नोमि तत्र वेतनं वेतनं दातुं न शक्नोमि
किन्तु प्राप्ते फलोदये पञ्चसु एकः भागः तुभ्यम् अवश्यमेव दीयते इति सा उक्तवती सा वदत् प्राप्ते फलोदये किमपि फलं प्राप्तवती तत्र
नाम कृषिकार्यस्य अनन्तरं
किमपि फलं प्राप्तवती
यत् यत्
तत्र
फलं प्राप्नुमः
पञ्चभागेषु एकः भागः युवकाय अवश्यमेव ददाति
सा ददाति
दास्यति
सा दास्यति उत्तमं सा दास्यति
दास्यति
समीचीनं तत्र पञ्चसु विभजनं पञ्चभागेषु विभजनं कृत्वा एकं भागं सा युवकाय दास्यति एकं भागं पञ्चसु एकं भागं सा युवकाय दास्यति अवश्यं दास्यति नाम निश्चयेन तत्र सन्देहः मास्तु निश्चयेन सा दास्यति इति उक्तवती अग्रे
अग्रे सन्तुष्टः युवकः सर्वं कार्यं सम्यक्तया अकरोत् युवकः सन्तुष्टः अभवत् अतः सः सर्वं कार्यं समीचीनं कृतवान्
तत्र सम्यक् सम्यक्तया
सम्यक्
नाम सम्यक् रीत्या इति तत्र भावरीत्या
कृतवान्
सम्यक्तया कृतवान् तत्र सन्तुष्टः युवकः कः सम्बन्धः तत्र सन्तुष्टः युवकः
विशेषविशेषणम्
अपि कार्यम् इति पदस्य विशेषणमस्ति वा
सर्वं सर्वं विशेषणं
सर्वं कार्यम् अस्तु अग्रे
सस्य मर्जयः मञ्जर्यः वर्धनं प्राप्य पोषकरसपूर्णाः अभवन्
तत्र पुनः तत्र तत्पदं पठतु तत्र
सस्यमञ्जर्यः वर्धनं प्राप्य पोषकरसपूर्णाः अभवन्
तत्र अभवन् तत्र पूर्णाः अभवन् खलु
पोष्करस् किमस्ति
पोषक नास्ति तत्र पोषकरसपूर्णाः
पोषकरसपूर्णाः अभवन् सस्यः वर्धनं तु तत् लघुसस्य आसन् तस्य वर्धनम् अभवत्
हा तत्र किन्तु मञ्जरी इति स्त्रीलिङ्गे अस्ति इति मन्ये तर्हि मञ्जर्यः इति हा बहुवचनं स्त्रीलिङ्गं
मञ्जर्यः वर्धनं प्राप्य
वर्धनं तत्र सस्यमञ्जर्यः वर्धनं प्राप्य इति लबन्तस्थाने क्रियापदं स्थापयामश्चेत् किं भवति
वर्धनं प्राप्तवान्
हा प्राप्तवान् तु पुल्लिङ्गे अस्ति अत्र मञ्जर्यः इति स्त्रीलिङ्गे अस्ति
प्राप्तवती
एकवचने अस्ति
प्राप्तवत्यः
उत्तमं महोदय समीचीनं हा सस्यमञ्जर्यः वर्धनं प्राप्तवत्यः तदनन्तरं पोषकरसपूर्णाः अभवत् हा पोषकरसेन पूर्णाः अभवन्
तदा युवकः धान्यानि परीक्षितवान् तदा तत्समये युवकः तस्य धान्यस्य परीक्षा कृतवान् तत् सम्यक् अस्ति वा न
परीक्षां कृतवान्
किन्तु तस्य दुर्दृष्टवशात् तासु सस्यमञ्जरीषु सम्यक्तया धान्यानि नैव सञ्जातानि तस्य दुर्दृष्टवशात् दुर् अस्ति अपि अथवा दूर्
किन्तु तत्र महोदय तत्र किमस्ति किमपि भवति तत्र जीवने तत्र किमपि भवति तत्र कारणं न जानीमः तदा वयं किं वदामः तत्र पापं पुण्यम् इति वदामः खलु पापवशात् पुण्यवशात् इति वदामः खलु किन्तु तत्र पापं पुण्यम् इति तत्र न द्रष्टुं शक्नुमः न तत् न द्रष्टुं शक्नुमः खलु पापम् इति पापं पापकारणात् इति वदामः किन्तु तत्र किं पापम् इति किं वस्तुतः वस्तुकारणं तत्र साक्षात् कारणं तत्र पापं तत् अस्मिन् जीवने अभवत् वा पूर्वस्मिन् जीवने अभवत् वा न जानीमः खलु पापं पुण्यं खलु अतः तत्र वयं किं वदामः अदृष्टः इति खलु
अदृष्टः अस्तु अस्तु
अदृष्टः इति पदं तु जानाति खलु भवान् अदृष्टः तत्र आङ्ग्लभाषायां लक् फार्च्यून् इति वदन्ति अदृष्टः हिन्दीभाषायामपि तादृशम् अस्ति खलु
अस्ति
अदृष्टः अदृष्टः इत्युक्ते पुण्यं वा पापं वा नाम केन कारणेन अस्मिन् जीवने किमपि भवति इति तत्र अदृष्टः इति भवति तत्र अदृष्टः तत्र उत्तम अदृष्टः भवति तत्र असमीचीन अदृष्टः अपि भवति तत्र दुर् अदृष्टः दुरदृष्टः इति दुर् अदृष्टवशात्
यः सम्यक् नास्ति तत् दुर अस्ति
दुर् अदृष्टवशात् तस्मात् कारणात्
महोदय
तासु सस्य
वदतु भगिनि
अत्र दूर दू दीर्घ किमर्थं नास्ति ह्रस्व किमर्थं
भगिनि तत्र दुर् इति तत्र सम्यक् नास्ति इति अर्थे
अच्छा सम्यक् नास्ति
दू इत्युक्ते सम्यक् दू इत्युक्ते तत्र तस्य विपरीतः भवति खलु
विपरीतः
तथैव सू इति सम्यक् दू इति तस्य विपरीतः
न दूरदृष्टि शब्दः अस्ति खलु दू दीर्घ
अत्र अत्र दूर इति
अत्र दूरदृष्टि न
दूरदृष्टि इति न अदृष्ट
अदृष्टः
इति अस्ति अदृष्टः नाम यत् न पश्यामः खलु दृष्टः इत्युक्ते ओ अहं दृष्टवान् तत्र
दृष्टं ज्ञातुं शक्नुमः
द्रष्टुं न शक्नुमः
द्रष्टुं न शक्नुमः
द्रष्टुं न शक्नुमः नाम तत्र पापं वा पुण्यं वा तत् वयं न द्रष्टुं शक्नुमः खलु पापं किम् अस्ति पुण्यं किम् अस्ति इति न द्रष्टुं शक्नुमः यत् अस्माकं जीवनेन तत्र पूर्वस्मिन् जन्मनि किमपि अभवत् किमपि कृतवन्तः तत्तु इदानीं न द्रष्टुं शक्नुमः खलु अतः तत्र पापं पुण्यम् इति तस्य नामकरणं भवति अदृष्टः इति
अदृष्टः
अत्र दुर् अदृष्टः अतः दूरादृष्टः
दूरादृष्टः धन्यवादः
दुर् अदृष्टवशात् नाम तस्य कारणेन अथवा तस्मात् कारणात् तत्र किम् अभवत्
तासु तासु सस्य मञ्जरीषु सम्यक्तया धान्यानि नैव सञ्जातानि तत् मञ्जरीषु सम्यक् धान्यानि न दत्तं
अभवन् धान्यानि न अभवन् सञ्जातानि नाम
तत्र
तेषां तत्र उत्पत्तिः तत्र धान्यानाम् उत्पत्तिः सम्यक् रीत्या न अभवत्
न अभवत्
तत्र धान्यानि नैव सञ्जातानि सम्यक्तया नाम कुत्रचित् धान्यमस्ति कुत्रचित् धान्यं नास्ति कुत्रचित् सम्यक् अपि नास्ति
सम्यक् नास्ति एतत् दृष्ट्वतः युवकस्य महत् दुःखम् अभवत् तत् युवकः सः युवकः तत् दृष्टवान् अतः सः महत् दुःखम् अनुभव कृतवान्
अनुभूतवान् तत्र दृष्टवतः इति विभक्ति का तत्र
तत् षष्टिविभक्तिः अस्ति दृष्टवान् तस्य षष्टिविभक्ति
दृष्टवतः समीचीनं दृष्टवान् युवकः दृष्टवतः युवकस्य इति समीचीनं
युवकस्य
तथैव तत्र महत् अपि दुःख विशेषणविशेष्य भावः अस्तु समीचीनं अग्रे
मयि विश्वस्य वृद्धया कृषिकार्यं कारितम् अहं अहं कृषिकार्यं कृतवान् कस्य कार्यं वृद्धायाः तस्य कार्यं कृतवान् सा मम कृते विश्वासं कृतवती विश्वस्य
समीचीनं तत्र समीचीनं तत्र समीचीनं तत्र केवलं तत्र कृषिकार्यं कारितं वृद्धया अस्तु अस्तु तत्र किञ्चित् वक्तव्यमस्ति महोदय तर्हि तत्र वृद्धया कृषिकार्यं कारितम् इति अस्ति. तत्र कर्मणि वा कर्तरि वा तत्र
कर्मणि
कर्मणि तत्र कर्तृपदं किमस्ति
मै
न न केवलं वृद्धया
कृषिकार्यं वृद्धया कार्य कृषिकार्यं कारितं
भवति वा तत्र कर्तृपदं
वृद्धया
तृतीया विभक्ति समीचीनं कर्मणि प्रयोगे कर्तृपदं तृतीया अस्ति समीचीनं हा इदानीं कर्तृरूपं वदतु
वृद्धा कृषिकार्यं कृतवती
न न न तत्र कारितम् इति अस्ति खलु
कारितं
तत्र तत्र महोदय तत्र बालकः अस्ति बालकः कार्यं करोति इति अस्ति चेत् बालकेन कार्यं किं भवति कृतम् इति भवति कृतं कार्यं कृतम् इति किन्तु अत्र कृतम् इति नास्ति
कारितम्
तर्हि कृतं कारितम् कः भेदः
तत् नेच् नेच्
उत्तमं हा करोति कारयति
कारयति वृद्धा कृषिकार्यं कारयति
कारितवती
कारितवती हा कारितवती
कारितवती साक्षात् साक्षात् न कृतवती किन्तु युवकम् उपयुज्य कारितवती
तथा
कारितवती
अस्ति
इदानीं मयि इति एतावत् नास्ति अत्र वाक्ये किन्तु वृद्धया कृषिकार्यं कारितं खलु नाम वृद्धा कृषिकार्यं कारितवती इदानीं तत्र मयि विश्वस्य इति अस्ति तत्र तत्र किं किम् अस्ति इति नामपदम् एतत् इति वदतु तत्र मयि इति विभक्तिका
षष्टि
मयि मयि
मयि
सप्तमी
सप्तमी
अहं पदस्य सप्तमी अस्मत्पदस्य सप्तमी मयि हा उत्तमं हा तर्हि मयि हा अपि विश्वस्य इति तत्र किमस्ति
तत्तु षष्टिः अस्ति विश्वस्य
स्याय् अस्ति इति कृत्वा षष्टि इति भवान् वदति वा
आम् आम्
हा सत्यमेव क्लेशकरमस्ति महोदय तत्र अन्य कोऽपि वदति वा अत्र किमस्ति
विश्वस्य लेबन्त अस्ति
हा विश्वस्य लेबन्तम् हा नाम मयि इति अस्ति चेत् तत्र सप्तमी किमर्थं तत्र सप्तमी पदं सप्तम्यन्तं पदम् अस्ति तत्र सप्तमी
कृते
तत्र मयि विश्वसिति सा वृद्धा मयि विश्वसिति विश्वासं करोति अतः मयि विश्वस्य इत्युक्ते मयि विश्वासं तस्याः विश्वासः मयि अस्ति अतः सा कृषिकार्यं कारितवती मया कारितवती मया कारितवती नाम अहं कृतवान् किन्तु तेन कारितवान् तत्र कृषिकार्यं तेन कृतवान् तत्र सा कारितवती किमर्थम् एतत् अभवत् यतोहि तस्याः विश्वासः अस्ति कस्मिन् अस्ति विश्वासः मयि अस्ति अतः विश्वस्य इति जपन्तं तद् अस्ति इति कृत्वा सा कारितवती कृषिकार्यं खलु. बालके तत्र युवके तस्याः विश्वासः अस्ति इति कृत्वा एव सा कृषिकार्यं कारितवती इति अस्ति. अस्तु अग्रे.
किन्तु मम दौर्भाग्यस्य कारणतः सस्यमञ्जरीषु धान्यांशाः नैव दृष्टाः. अत्र सः वदति किन्तु मम दौर्भाग्यस्य
मम
तत् कारणः अस्ति अतः सस्यमञ्जरीषु धान्यानि न आगतवन्तः नैव दृष्टाः
न सन्ति धान्यांशः न एव सन्ति नाम दृष्टाः नाम द्रष्टुं न शक्नुमः धान्यानाम् अंशाः तत्र न द्रष्टुम् अंशान् तत्र न द्रष्टुं शक्नुमः.
अस्य कारणं मम दौर्भाग्यम् अस्ति.
मम दौर्भाग्यमेव अत्र कारणम् अतः दौर्भाग्यस्य कारणात् अथवा कारणतः सस्यमञ्जरीषु धान्यांशाः नैव दृष्टाः. समीचीनं. अग्रे.
अतः मया वृद्धायै मुखं न दर्शनीयम् सः चिन्तयति. अतः अहं वृद्धा कृते मुखं न दर्शनीयम् अहं
न दर्शनीयम् इति अनियर् तत्र तृतीया एव भवति कर्मणि
अनियर्
एव मया एव नाम अहं तत्र वृद्धायै मुखं तत्र प्रदर्शितुं
न
अर्हामि
न प्रदर्शितुं न प्रदर्शितुं
प्रदर्शनं कर्तुं न अर्हामि नाम तत्र अहं कथं तत्र तस्याः तत्र पार्श्वे तत्र पुरतः तत्र तस्याः पुरतः अहं कथं गन्तुं शक्नोमि खलु तत्र लज्जा भवति इति खलु.
एतं नामं त्यक्त्वा अन्यत्र गन्तव्यम् इति तेन निर्णयः कृतः. अत्र सः निर्णयं करोति अहं एतं ग्रामं त्यक्त्वा कुत्रापि अन्य गच्छामि
अन्यत्र गच्छामि इति सः निर्णयं कृतवान्. हा समीचीनं महोदय. अस्तु अस्तु इदानीं तत्र अग्रे प्रायशः महोदय तत्र वाक्यद्वयं पठतु तदनन्तरं तत्र निवेदिता भगिनी पठति. हा तत्र उपविष्टा आसीत् इति तावत्पर्यन्तं पठतु महोदय.
अस्तु. अनन्तरदिने प्रभाते वृद्धां सकृत् दूरात् गमिष्यामि इति विचिन्त्य सः वातायन द्वारा वृद्धाम् अनन्तरदिने प्रभाते वृद्धां सकृत् दूरात्
अनन्तरदिने प्रभाते इत्युक्ते कदा
एकः अन्यदिने प्रभाते
अग्रिमे दिने अनन्तरदिने
अग्रिमदिने
प्रभाते इत्युक्ते
प्रभाते प्रातःकाले
प्रातःकाले सः किं
वृद्धां सकृत् दूरात् दृष्ट्वा गमिष्यामि इति विचिन्त्य सः वातायनद्वारा वृद्धाम् अपश्यत्. सः चिन्तनं कृतवान् सः वातायनं द्वारा न सा वृद्धां सकृत् दूरात् दृष्ट्वा गमिष्यामि. सा चिन्तितवान् अहं वृद्धां दूरात् दृष्ट्वा गमिष्यामि, अहं वृद्धां समीपे न गमिष्यामि,
समीपं न गच्छामि किन्तु दूरात् एव दृष्ट्वा
अहं गमिष्यामि
तत्र सकृत् इत्युक्ते केवलम् एकवारं तत्र नाम वृद्धायाः पार्श्वे न गन्तुं शक्नोमि किन्तु तत्र विना दर्शनमपि न गन्तुं तत्र इच्छा भवति अतः तत्र दूरात् एव केवलम् एकवारं तां दृष्ट्वा अहं गच्छामि इति
सः चिन्तनं
न
सः चिन्तनं करोति. अतः सः वातायनं द्वारा वृद्धाम् अपश्यत् सः द्वारा दूरात् वृद्धाम् अपश्यत्. सा तु देव सा तु देवम् आराधयन्ति उपविष्टा आसीत्. सा देवम् आराधनं करोति स्म. सा तत्र उपविष्टा आसीत्.
समीचीनं. तत्र आराधनम् इति भवति चेत् महोदय सम्यक् एव, किन्तु आराधनम् इति अस्ति चेत् तत्र देवम् आराधयन्ति इति अस्ति तत्र यदि तत्र उदाहरणार्थं तत्र आराधयति देवम् आराधयति अथवा तत्र देवं नमति इति स्वीकुर्मः महोदय देवं नमति. इदानीं नमनम् इति स्थापयामश्चेत् तत्र किं भवति? देवं नमनम् अथवा अन्यत् किमपि भवति वा?
देवं पूजयति.
न तत्र अस्तु अन्यत् उदाहरणं स्वीकुर्मः महोदय. तत्र सः ग्रन्थं पठति किन्तु इदानीं पठति इति स्थाने पठनम् इति भवति चेत् तत्र वाक्यं किं
ग्रन्थं पाठनं करोति
पठनं करोति किन्तु ग्रन्थं पठनम् इति न भवति खलु? किं किं महोदय ग्रन्थपठनम् इति समस्तपदं तदपि समीचीनं किन्तु यदि पदद्वयमस्ति चेत् केवलं पठनम् इति अस्ति तस्मात् प्राक् तथैव अस्ति तथैव अत्र देवस्य देवस्य आराधनं कुर्वती आसीत्
उपविष्टा
आसीत् इति अस्ति. समीचीनं महोदय. हा उत्तमं. तत्र देवस्य इति षष्टि इति स्मृतवान्. उत्तमं महोदय. अस्तु इदानीम्
महोदय आराधयन्ति इति किमर्थं दत्तमस्ति?
तत्र शत्रन्तरूपम्
शत्रन्तरूपम्
आराधयन्ति दीर्घ अस्ति तत्र.
हा सत्यं तत्र आराधयति इति एव तत्र प्रायश क्रियापदं खलु किन्तु आराधयन्ति इति अस्ति. पठति
पुल्लिङ्गे आराधयन्
सत्यं महोदय. हा तथैव सत्यं. तत्र उषा भगिनी तत्र पठति इति क्रियापदं साक्षात् क्रियापदं खलु?
आं पठन्ति.
शत्रन्तरूपं पुल्लिङ्गे किम् अस्ति?
पुंलिङ्गे वा महोदय? पठन्
पठन् स्त्रीलिङ्गे
पठन्ति दीर्घ
इति तदेव अस्ति तावदेव.
धन्यवादः महोदय.
समीचीनं. हा अस्तु इदानीम् अग्रे निवेदित भगिनि.
आम् आम् क्षम्यतां
दूरादेव इति आरभ्य
दूरादेव तां नमस्कृत्य ततः प्रस्थितवान् सः नमस्कृत्य लेबन्त अस्ति
समीचीनं
नमस्करोति तां ततः प्रस्थितवान् सः सः दूरादेव तां नमस्कारम् अकरोत्
तत्र नमस्कार तां
नमस्कारम् अकरोत् अनन्तरं सः प्रस्थितवान्
प्रस्थितवान् नाम गन्तुं
गन्तुम् अभवत् प्रस्थितवान् प्रस्थितवान्
नाम आरम्भं कृतवान् नाम
न न मूलधातु अहं प्रस्थितवान् धातुरूपम् अहं चिन्तयामि
तत्र स्थितवान् धातुः किन्तु तिष्ठति इति तत्र भवति रूपं निच् इत्येन
तिष्ठति
सः अथवा सा तिष्ठति
उपसर्गेण उपसर्गस्य कारणेन तत्र
निच् अस्ति चेत् तत्र स्थित प्रस्थित इति प्रायशः तत्र उपसर्गस्य अपि कारणेन भवितुमर्हति तत्र
अर्थभेदः भवति न अर्थं
सत्यं
अतः अहं चिन्तयामि
इति उपसर्गः अस्ति सत्यं भगिनि
क्षेत्रे गमनसमये सस्यमञ्जरीणां स्पर्शः अभवत् क्षेत्रे गमनसमये सस्यमञ्जरीणां यदा सः प्रस्थितवान् तदा सः क्षेत्रं गतवान्
क्षेत्रमार्गेण
तदा सस्यमञ्जरीणां षष्ठी अस्ति षष्ठीभक्ति अस्ति न खलु स्पर्शः तम् अभवत्
तत्र तम् इति नास्ति अभवत् इति अकर्मकक्रियापदम् अतः तत्र केवलम् अभवत् स्पर्शः अभवत् स्पर्शम् अनुभूतवान् सः अनुभूतवान् स्पर्शम् अनुभूतवान् तत्र क्षेत्रे इति पश्यतु क्षेत्रे इति तत्र देशसप्तमी नाम यत्र इति अपि गमनसमये अपि सप्तमी किन्तु कालसप्तमी कालसूचकसप्तमी तस्मिन् समये इति
तस्मिन्
देशे तस्मिन् समये अतः क्षेत्रे गमनसमये
क्षेत्रे गमनसमये आश्चर्यं भारवस्तुनः स्पर्शः इव अनुभूतः तेन कर्मणि रचना तेन अनुभूतः
स्पर्शः तेन अनुभूतः समीचीनः
सः पश्यति स अपश्यत् सस्यमञ्जरीषु सम्यक्तया धान्यानि नैव सञ्जातानि किन्तु किन्तु
इदानीं तत्र स्पर्शः कीदृशः अस्ति
इदानीन्तः स्पर्शः भारवस्तुनः स्पर्शः इव
भारवस्तुनः इति
तत्र मतलब् धान्यकणान् पुष्टधान्यकणान् तत्र
इति तत्र भारवस्तुनः
सन्ति इति सः पुष्टधान्यकणान् तत्र सन्ति इति
तत्र भारवस्तुनः इति विभक्तिका तत्र
भारवस्तुनः भारवस्तूनि वस्तूनि वस्तु नपुंसकलिङ्गी शब्दः अस्ति
सत्यं उत्तमं वस्तुनः
विभक्ति अस्ति खलु
षष्टि एकवचनं समीचीनं वस्तुनः भारवस्तुनः
स्पर्शः भारवस्तुनः विशेषभावस्ति तत्र विशेषणविशेष्यभावस्ति तस्य अनुभूति भवति कुतूहलवशात् सः सस्यमञ्जरीणां परीक्षणम् अकरोत् मनसि उत्सुकता औत्सुक्यम् अस्ति अतः सः सस्यमञ्जरीणां परीक्षाम् अकरोत् आश्चर्य नाम तासु सस्यमञ्जरेषु स्वर्णधान्यानि उत्पन्नानि आसन् धान्यं
किन्तु इदानीं तत्र स्वर्णधान्यानि
स्वर्णधान्यानि अतः तस्य स्पर्शः भारवस्तुनः स्पर्श इव अनुभूतः
समीचीनं समीचीनं अग्रे
युवकस्तु अत्र विसर्गसन्धिः अस्ति युवकः तु महता आश्चर्येण अम्ब अम्ब इति आक्रोशन् पर्णकुटीरं प्रविष्टवान् आक्रोशं शत्रुः अस्ति प्रविष्टवान् प्रवेशं करोति अकरोत् सः युवकः तु आश्चर्यचकितः भवति अभवत् अतः सः वृद्धया वृद्धेला
वृद्धायाः कुटीरं प्रति
वृद्धां प्रति अम्ब अम्ब इति तत्र आक्रोशनं कुर्वन् सः पर्णकुटीरं प्रविशति स्म पर्णकुटीरे प्रविष्टवान् प्राविशत् इति सम्यक् अस्ति प्राविशत् अस्माकं शालिसस्यमञ्जरीः पश्य इति वदता तेन सा आहुता वदता
तत्र विभक्ति का तत्र वदता
तृतीया अस्ति
प्रथमविभक्त्यां रूपं किं
तृतीयविभक्ति अस्ति खलु
सत्यं
महता वदता
किन्तु प्रथमाविभक्तिरूपं किम् अस्ति
वदन्
वदन् शत्रन्तरूपं
शत्रन्
वदता
तेन वदता कर्मणि
सः वदन् तां वृद्धाम् आहूतवान्
आहूतवान्
इति कर्तृरूपम् अपि तत्र शालिसस्यमञ्जरीः इति अस्ति तत्र विभक्ति का तत्र
प्रथमाविभक्ति नदी
मञ्जरी इति स्त्रीलिङ्गपदं
नदीः
तत्र नदीपदस्य विभक्तिरूपाणि एकवारं वदतु
नदी न नदीः न नदी नद्यौ नद्यः नदीं नदी नदीः द्वितीया उपचनमस्ति
पश्यति
लोट्लकार अस्ति लोट्लकार
तस्य कर्मपदं मञ्जरीः
आम् पश्य दृशपश्य लोट्लकार अस्ति
अग्रे
अस्माकं शालिमञ्जरीः पश्य इति वदता तेन सा आहुता सः ताम् आहूतवान् वृद्धाक्षेत्रम् आगत्य सस्यमञ्जरीणां परिशीलनम् अकरोत् आगत्य गमगच्छ लेबन्त वृद्धाक्षेत्रम् आगतवती सस्यमञ्जरीणां परिशीलनम् एव कृतवती.
कृतवती, समीचीनम्. अग्रे
कृतवती. तासु सुवर्णधान्यानि दृष्ट्वा महत् आश्चर्यम् अनुभवन्त्याः तस्याः नेत्राभ्याम् आनन्दाश्रुणि निर्गतानि. दृष्ट्वा त्वान्त अनुभवन्त्याः अनुभवन्ति शत्रन्त अनुभवन्त्याः तस्याः. अतः षष्ठी विभक्ति अस्ति.
षष्ठी, समीचीनम्.
अनुभवन्त्याः विशेषण विशेषभावस्ति. नेत्राभ्याम् आनन्दाश्रुणि निर्गतानि. निर्गतानि
तत्र नेत्राभ्यां पञ्चमी, नेत्राभ्यां पञ्चमी द्विवचनं, तस्मात्
पञ्चमी
निर्गतानि.
सा यदा सुवर्णधान्यानि अपश्यत् तदा सा महत् आनन्दम् अनुभूतवती.
अनुभूतवती, समीचीनं. समीचीनं. तस्याः नेत्राभ्यां
आनन्दाश्रुणि निर्गतानि.
समीचीनम्.
अत्र निर्गतानि कृते आनन्दाश्रुणि,
तस्य विशेषणम् आनन्दाश्रुणि निर्गतानि.
आगतानि अपि चलति वा?
न न न, यतोहि तत्र नेत्राभ्याम् इति अस्ति खलु.
आगतानि न न न, नेत्राभ्याम्
आगतानि अस्ति चेत् किन्तु तदा किं भवति भगिनि, आनन्दाश्रुणि आगतानि तत्र, तत्र किं भवति, नेत्रो नेत्रयोः इति. कुत्र आगतानि आनन्दाश्रुणि? नेत्रे,
नेत्रयोः,
नेत्रयोः.
पञ्चमी विभक्ति तत्र, पञ्चमी विभक्ति
अस्ति इति कृत्वा, पञ्चमी अस्ति इति कृत्वा निर्गतानि इति अस्ति.
अच्छा, निर्गतानि. धन्यवादः. यथा पूर्वं प्रतिज्ञातं तथा फलोदयस्य पञ्चमं भागं तस्मै युवकाय दत्तवती. सा पूर्वं प्रतिज्ञाम् अकरोत्. सा पूर्वं प्रतिज्ञाम् अकरोत् यदा किं मतलब् अहं तुभ्यं वेतनं दातुं न प्रभवामि, किन्तु प्राप्ते फलोदये पञ्चसु एकभागः तुभ्यम् अवश्यमेव दीयते इति प्रतिज्ञां सा अकरोत्. अतः सा सा पूर्वप्रतिज्ञां यत् अकरोत् तथा फलोदयस्य पञ्चमं भागं तस्मै युवकाय दत्तवती.
नाम प्रतिज्ञायाः पालनं
करोति, अकरोत्, अकृतवती.
पालनं कृतवती, पञ्चमं भागं तस्मै युवकाय दत्तवती.
तेनैव सा धर्मवती इति ख्याता जाता. सा एतत् कार्यं करोति अतः सा धर्मवती
इति
नाम्ना
ख्याति
प्राप्ता.
तत्र सर्वे सां धर्मवती इति तत्र नामकरणं, तस्याः नामकरणम् अभवत्. तत्र एषा धर्मवती अस्ति अस्ति इति तत्र सर्वे उक्तवन्तः. अतः तत्र तस्याः ख्यातिः
जाता,
ख्यातिः अभवत् इति अस्ति. समीचीनं. तत्र किञ्चिदेव कथायाम् अस्ति, तद् त्यजामः. तर्हि तत्र अग्रिमे वर्गे वयं तत्र साक्षात् सन्धि कार्यं कुर्मः तर्हि, यतोहि समयः जातः. तर्हि तत्र निवेदनभगिनी भवती तत्र अन्ते शान्तिमन्त्रं वदति वा, तदनन्तरं समापयामः.
आम् आम्. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरि ओम्. धन्यवादः. पुनर्मिलामः.
धन्यवादः.